ओंकार रूपं त्रहमिति च परं यत्स्वरूपं तुरीयं त्रैगुण्यातीतमीलं कलयति मनस् तेज सिन्दूरमूर्तिं योगीन्द्रैर्ब्रह्मरन्ध्रैः सकलगुणमयं श्रीहरेन्द्रेण सङ्गम् गं 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 गणेशं गजमुखमभितो व्यापकं चिन्तयन्